ಗಣಪತಿಗುಂ ಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನ ಶೃಣ್ವನ್ನೋತಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಚೇಭಿರ್ ವಾಜಿನೀವತೀ ಧೀನಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತಗಿಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೇ ಬಾಹುಭ್ಯಾಮುತತೇ ನಮಃ ಯಾತಗಿಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯಾತವತಯಾನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೂರ ಘೋರ ಪಾಪಕಾಶಿನೀ ತಯಾನಸ್ತನು ವಾಚಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಜಾಗಶಿ ಯಾಮಿಷುಂ ಗಿರಿಶಂತ ಹಸ್ತೆ ಬಿಭರ್ಷ್ಯಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಧಿ ಪುರುಷಂ ಜಗತೆ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗತ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತೆ ಅಧ್ಯವೋಚದಧಿವಕ್ತಾ ಪ್ರಥಮೋ ದೈತ್ಯೋಭಿಷಕ್ ಅಹೇಗಶ್ಚ ಸರ್ವಾನ್ ಜಂಭಯನ್ ಸರ್ವಾಶ್ಚಯಾತು ಧಾನ್ಯಃ ಅಸಂಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರಸ್ಸು ಮಂಗಳಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷುಶ್ರಿತಾತ್ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಡಗೀಮಹೇ ಅಸವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿರೋಹಿತಃ ಉತೈನಂ ಗೋಪಾ ಅದೃಶನ್ನದೃಶನ್ನುದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಡುಷೇ ಅಧೋಗೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಗರನ್ನಮಃ ಪ್ರಮುಂಚ ಧನ್ವನಸ್ತ್ವಮುಭಯೋರಾತ್ಮಿಯೋರ್ಜ್ಯಾ ಯಾಶ್ಚ ತೇ ಹಸ್ತ ಇಷವಃ ಪರಾತಾ ಭಗವೋ ವಪಾ ಅವತತ್ಯ ಧನುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ಧೇ ನಿಷೇಧ್ಯ ಶಲ್ಯಾಣಾಮುಖಾ ಶಿವೋ ನಃ ಸುಮನಾಭವ ವಿದ್ಯಂ ಧನುಃ ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಭುರಸ್ಯ ನಿಷಂಗತಿಃ ಯಾತೇ ಹೇತಿರ್ಮೀ ದುಷ್ಟಮಹಸ್ತೇ ಬಭೂವತೇ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮ ಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜಾ ನಮಸ್ತೆ ಅಸ್ವಾಯುಧಾಯ ನಾತತಾಯ ದೃಷ್ಟವೇ ಉಭಾಭ್ಯಾಮುತತೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೇ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ अधो व्यगिषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकात्मिकाराय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्मिञ्जराय त्रिषीमते पदीनां पतये नमो नमो बभ्रुषाय विव्याधिनेन्नानां पतये नमो नमो हरिकेशायोपवेदिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायाततावीने क्षेत्राणां पतये नमो नमः सूतायाहन्त्याय वनानां पतये नमो नमो रोहिताय सपतये वृक्षाणां पतये नमो नमो मन्द्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये पारिवत्कृतायौषधीनां पतये नमो नम उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो नमः कृत्स्नवीताय धावते सत्त्वनां पतये नमः नमः सगमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे सेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्थायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः सृकाविभ्यो जिगागुं सद्भ्यो मुष्णतां पतये नमो नमो सिमद्भ्यो नक्तं चरद्भ्यः प्रकृन्दानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्जानां पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रदिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम सृष्टद्भ्यो धावभ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम उगणाभ्यस्तृगुंहतीभ्यश्च वो नमो नमो कृत्सेभ्यो कृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो प्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः शुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपदेभ्यश्च वो नमो नमः सेनाभ्यस्सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मालेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नमः गिषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नमः श्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः सर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च प्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो मीडुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाचिराय च नमः शीघ्रियाय च शीभ्याय च नमः ओर्ण्याय चावस्वन्याय च नमः श्रोतस्याय च दीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च अपगल्भाय च नमो जगन्याय च बुद्धियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याज्ञाय च क्षेम्याय च नम उर्वर्याय च कल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरताय च नमः शूराय चावविन्दते च नमो वर्मिणे च वरोधिने च नमो विल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो दृष्टवे च प्रमशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषु धिमते च नमः शेष्येषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च दीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः ईत्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो अन्ते च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः सेत्याय च गोल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतात्याय च लात्याय च नमः चष्प्याय च पेट्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिन्द्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः काट्याय च गह्वरेट्टाय च नमो हृदय्याय च निवेश्याय च नमः पागुं सव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय च लप्याय च नमः ओर्व्याय च सोर्व्याय च नमः पर्याय च पर्णशद्याय च नमो पगुरमानाय च भिक्षते च नमः आख्यनते च रक्षिणते च नमो वक्किरिकेभ्यो देवानागम् हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रावे अन्धसस्वते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्चनाममत् याते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे दयानो मृडजीवसे इमागुम् रुद्राय तवसे कपद्दिने क्षयग्वीराय प्रबरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननादुरम् मृडानो रुद्रोतनो मयस्कृते क्षयग्वीराय नमसा विधेमते यच्चम् च योश्च मनुरायजे पिता तदश्यामतव रुद्रप्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वधे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभावितो वधेर्भविष्मन्तो नमसा विधेमते आराते गोभ्रमुत पोरुषग्ने क्षयत्वीराय सुम् नमस्तेते अस्तु रक्षाजनो अधि च देव ब्रूयता जनः शर्म यच्च द्विबर्हाः स्तुहि श्रुतम् गर्त सतम् युवानम् मृगन्न भीममुपहत्तमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेते विणक्तु परित्वेषस्य दुर्मतिरगायोः अवस्थिरा भगवद्यस्तनुष्वमीरुस्तोकायतनयाय मृडया मीडुष्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधम् निधाय कृत्यम् वसा न आचरपि नाकम् बिभ्रदागहे विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् एतयोन्यमस्मन्निवपन्तु ताः सहस्राणि सहस्रदा बाहुवोत्सवहेतयः तासामीशानो भगवः पराजेनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयो जले वर्धन्वानि तन्मसे अस्मिन्महत्यर्नवेन्दरिक्षे भव अदे नीलग्रीवाशिति कण्ठा सर्वा अधः क्षमाचराः नीलग्रीवाशिति कण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्तिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासक्कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विपदो जनान् ये पथाम् पतिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचरन्ति शृगावन्तो निषङ्गिनः य एतावन्तश्च भूयागुंसच्च दिशो रुद्रावितस्तिरे तेषागुंसहस्रयो जने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिव्ये शावन्नम् वातो वरुषमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिजेर्दशो तेजेर्दशोर्द्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् विश्वो यश्च नो द्वेष्टितम् भोजम् हे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्वभुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मत्याय हन्तवे तान् यज्ञस्य मायया सर्वा नवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् नन्तिरसि रुद्रो मा विशान्तकः तेनान्येनाज्ञाय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्विषुस्सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे सजोयगु शिवाभिवर्षणः ॐ शान्ति शान्ति शान्तिः विष्णो सजोषसेवावद्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् ఆజశ్చ మే ప్రసవశ్చ మే ప్రయతిశ్చ మే ప్రసితిశ్చ మే ప్రీతిశ్చ మే క్రతుశ్చ మే స్వరశ్చ మే శ్లోకశ్చ మే శ్రావశ్చ మే శ్రుతిశ్చ మే జ్యోతిశ్చ మే సువశ్చ మే ప్రాణశ్చ మే పానశ్చ మే జ్ఞానశ్చ మే సుశ్చ మే చిత్తం చ మాధీతం చ మే వాక్చ మే మనశ్చ మే చక్షుశ్చ మే శ్రోత్రం చ మే దక్షశ్చ మే బలం చ మఓజశ్చ మే సహశ్చ మ ఆయుశ్చ మే జరా చ మ ఆత్మా చ మే తనోశ్చ మే శర్మ చ మే వర్మ చ మేంగాని చ మే స్థాని చ మే పరోపుంషి చ మే శరీరాణి చ మే జైష్ట్యం చ మాధిపత్యం చ మే మన్యుశ్చ మే భామశ్చ మే మచ్చ మే భశ్చ మే జేమా చ మే మహిమా చ మే వరిమా చ మే ప్రతిమా చ మే వష్మా చ మే ద్రాఘుయా చ మే వృద్ధం చ మే వృద్ధిశ్చ మే సత్యం చ మే శ్రద్ధా చ మే జగచ్చ మే ధనం చ మే వశశ్చ మే ద్విషిశ్చ మే క్రీడా చ మే మోదశ్చ మే జాతం చ మే జనిష్యమానం చ మే సూక్తం చ మే సుకృతం చ మే విత్తం చ మే వేద్యం చ మే భూతం చ మే భవిష్యత్ చ మే సుఖం చ మే సుపథం చ మరుద్ధం చ మరుద్ధిశ్చ మే కృప్తం చ మే కృప్తిశ్చ మే మతిశ్చ మే సుమతిశ్చ మే శం చ మే మయశ్చ మే ప్రియం చ మేను కామశ్చ మే కామశ్చ మే సోమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యజశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధత్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రసోశ్చ మే శరీరం చ మే లయశ్చ మృతం చ మే మృతం చ మే యక్ష్మం చ మే నామయచ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మే న మిత్రం చ మే భయం చ మే సుఖం చ మే శయనం చ మే సోషా చ మే సుదినం చ మే ఓచ్చ మే సోనృతా చ మే పయశ్చ మే రసశ్చ మే ఘృతం చ మే మధు చ మే సగ్గిశ్చ మే సపేదిశ్చ మే కృషిశ్చ మే వృష్టిశ్చ మే జైత్రం చ మౌద్భిద్యం చ మే రయిశ్చ మే రాయశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే విభు చ మే ప్రభు చ మే బహు చ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షితిశ్చ మే కోయవాశ్చ మేనం చ మే క్షుచ్చ మే ప్రేహయశ్చ మే యవాశ్చ మే మాషాశ్చ మే తిలాశ్చ మే ముద్గాశ్చ మే కల్వాశ్చ మే గోధూమా ఆశ్చ మే మసురాశ్చ మే ప్రియంగవశ్చ మేణవశ్చ మే శ్యామాకాశ్చ మే నివారాశ్చ మే అశ్మా చ మే మృత్తికా చ మే గిరయశ్చ మే పర్వతాశ్చ మే శిఖతాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మే యశ్చ మేథీ సంచ మేత్రపుశ్చ మే శ్యామం చ మే లోహం చ మే అగ్నిశ్చ మాపశ్చ మే వేరుధశ్చ ఔషధయశ్చ మే కృష్టపచ్చం చ మే కృష్టపచ్చం చ మే గ్రామ్యాశ్చ మే పశవ ఆరణ్యాశ్చ యజ్ఞేన కల్పంతాం విత్తం చ మే విత్తిశ్చ మే భూతం చ మే భూతిశ్చ మే వసు చ మే వసతిశ్చ మే కర్మ చ మే శక్తిశ్చ మే అర్ధశ్చ మగేమశ్చ మగితిశ్చ మే గతిశ్చ మే అగ్నిశ్చ మగీంద్రశ్చ మే సోమశ్చ మగీంద్రశ్చ మే సవితా చ మగీంద్రశ్చ మే సరస్వతీ చ మగీంద్రశ్చ మే పూషా చ మగీంద్రశ్చ మే బృహస్పతిశ్చ మగీంద్రశ్చ మే మిత్రశ్చ మగీంద్రశ్చ మే వరుణశ్చ మగీంద్రశ్చ మే త్వష్టా చ మగీంద్రశ్చ మే ధాతా చ మగీంద్రశ్చ మే విష్ణుశ్చ మగీంద్రశ్చ మే త్వినౌ చ మగీంద్రశ్చ మే మరుతశ్చ మగీంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మగీంద్రశ్చ మే అంతరిక్షం చ మగీంద్రశ్చ మే ద్యౌశ్చ మగీంద్రశ్చ మే దిశశ్చ మగీంద్రశ్చ మే మూర్ధా చ మగీంద్రశ్చ మే ప్రజాపతిశ్చ మగీంద్రశ్చ మే అగుంసుశ్చ మే రశ్మిశ్చ మేధాభ్యశ్చ మేధిపతిశ్చ మ ఉపాగుంసుశ్చ మేంద్రయామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రవరుణశ్చ మాశ్వినశ్చ మే ప్రతి ప్రస్థానశ్చ మే శుక్రశ్చ మే మంధే చ మాగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతుగ్రహాశ్చ మే దిగ్రాగ్యాశ్చ ఐంద్రాగ్రశ్చ మే వైశ్వదేవశ్చ మే మరుత్వదీయాశ్చ మే మాహేంద్రశ్చ ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పాత్నీపదశ్చ మే భార్యోజనశ్చ మే ఇద్మశ్చ మే బర్హిశ్చ మే వేదిశ్చ మే ధిష్ణ్యాశ్చ మే ధృజశ్చ మే చమసాశ్చ మే గ్రావాణశ్చ మే త్వరవశ్చ మ ఉపరవాశ్చ మే దిశవణే చ మే ద్రోణకలశశ్చ మే వాయవ్యాని చ మే భూతభృచ్చ మ ఆధవనీయశ్చ మ ఆగ్నేర్ధం చ మే హవిర్ధానం చ మే గృహాశ్చ మే సదశ్చ మే ప్రోడాశాశ్చ మే పచతాశ్చ మే వభృతశ్చ మే స్వగాకారశ్చ మే అగ్నిశ్చ మే ఘర్మశ్చ మేర్కశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మే స్వమేధశ్చ మే పృథివీ చ మే ధితిశ్చ మే ధితిశ్చ మే ద్యౌశ్చ మే చక్వరేరంగులయో దిశశ్చ మే యజ్ఞేన కల్పంతామృత్ చ మే సామ చ మే స్తోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మరుతుశ్చ మే వ్రతం చ మే హోరాత్రయోగోర్భృష్ట్యా బృహద్ధరం తరే చ మే యజ్ఞేన కల్పేతా గర్భాశ్చ మే వత్స साश्च मेत्रय विश्च मेत्रय वीच मे दित्यवाच्य मे दित्यौ हीच मे पञ्चाविश्च मे पञ्चावीच मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्य मे तुर्यौ हीच मे भष्टवाच्य मे भष्टौ हीच म उक्षा च मे वशा च मऋषभश्च मे देहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता श्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे त्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुं सच्च मेष्टा चत्वारिगुं सच्च मे वाजश्च प्रसवश्चाभिजश्च क्रतुश्च शुभश्च मूर्धा च व्यस्नेयश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञने बृहस्पतिरुद्धा मदानिशगुं दिशद्विश्वे देवासोऽवाच पृथिविमा सर्वा मायिगुं मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमते देवेभ्यो वाचमुद्यासगुं शुश्रोषेण्याम् मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः ॐ दच्छयो रावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीरुषा पुरुषः सहस्राक्षः सहस्रपाद् स भूमिम् विश्वतो भृत्वा अत्यधिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्छ भव्यम् उतामृतत्वस्येषा नः यदन्नेनातिरोहति एतावानस्य महिमा अतोऽध्यायागश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्वौतये पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् शासनानशने अभि तस्मात् विराट जायत विराजो अधिपुरुषः स जातो अत्यदिच्छत पश्चात् भूमिमधो पुरः यत्पुरुषेण हविषा देवायज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्मयुग्मः शरद्भविः सप्तास्यासन्वरिदयः त्रिसप्तसमिदः कृताः देवायज्ञम् तन्वानाः अवध्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वहुतः संमृतम् ऋषदाज्यम् अशोकस्तागश्चक्रे वायव्याः आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एकेचो भयाददः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः कदिधाव्यकल्पयन् मुखम् किमस्य कौ बाहु का भोरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः ओरो तदस्य यद्वैष्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षुः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेषाद्यौ समवर्तत पद्भ्याम् भूमिर्दिशत्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रतिशश्च तः सः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रदमान्यासन्
तेहनाकं महिमानः सजन्ते यत्र पूर्वे
साध्या सन्ति देवाः अभ्यः सम्भूतः पृथिव्यैरसा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवते नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपते यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे रेष्यते लक्ष्मीस्य पत्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणाम् अमुम् मनिषाणाम् सर्वम् मनिषाणाम् तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ नातो नगेन्द्रक्षुमन्तम् चित्रम् गाभम् सङ्गृहाय महाहस्ते दक्षिणेन विद्माहित्वा तु विकोर्णिम् तु विदेष्णम् तु विमघम् तु विमात्रमवोभिः नहित्वा चूरदेवानमत्ता सोदिक्सन्तम् भीमम् नमाम् वारयन्ते ये तोन्निन्द्रम् सवामेशानम् वस्वस्वराजम् नराधसामर्थिषन्नः प्रस्तोषदुपगासि सत्रवत्सामगीयमानम् अभिराधसा जुगुरत् आनो भरदक्षिणेनाभिसव्येन प्रमृषा इन्द्रमानो वसो निर्भाग उपक्रमस्वाभरदृशदा दृष्णो जनानाम् अदाशोष्टरस्य वेदः इन्द्रय उनुते अस्ति वाजो विप्रेभिः सनित्वः अस्माभिः सुदम् तनुहि सद्यो जुवस्ते वाजा अस्मभ्यम् विश्वश्चन्द्रा वशेश्च मक्षो जरन्ते गणानाम् त्वाम् गणपतिम् हवामहे कविम् कवीनामुपमश्रवत्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन्नोतिभिः सेदसाधनम् निशुसेद गणपते गणेषु वामा गुर्विप्रथमम् कवीनाम् नर्ते त्वक्रियते किञ्चनारे महामर्कम् मघवन् चित्रमक्षा अभिख्यानो मघवन्नाधमानान् सखे बोधिवसुपते सखीनाम् रणम् सत्यशुष्मा भक्ते चिदाभज रागे अस्मान् ॐ शान्ति शान्ति शान्तिः ॐ देवस्य त्वासवितु प्रसवे अश्विनोर्बाहुभ्या पोष्णो हस्ताभ्याम् अश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसा याभिषिञ्चामि देवस्य त्वासवितु प्रसवे अश्विनोर्बाहुभ्या पोष्णो हस्ताभ्याम् इनस्वत्यैवैषज्येन वेद्यायान्नाद्यायाभिषिञ्चामि देवस्य त्वासवितु प्रसवे अश्विनोर्बाहुभ्या पोष्णोहस्ताभ्याम् इन्द्रस्येन्द्रियेण श्रियैयशसे बलायाभिषिञ्चामि देवस्य त्वासवितु प्रसवे श्विनोर्बाहुभ्या पोष्णो हस्ताभ्यागुम् सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्ने साम्राज्येनाभिषिञ्चामीन्द्रस्य साम्राज्येनाभिषिञ्चामि बृहस्पते त्वा साम्राज्येनाभिषिञ्चामि आयुराशास्ते सुप्रजास्त्वमाशास्ते सजातवनस्यामाशास्ते उत्तरां देवयज्ञामाशास्ते भूयो हविष्करणमाशास्ते दिव्यं धामाशास्ते विश्वं प्रियमाशास्ते यदनेन हविषाशास्ते तदस्यात्तदृग्याद् तदस्मै देवारासन्ताम् द्रुपदादिवेन मुमुचानः शृङ्गस्नात्रीमदादिवा भूतम् पवित्रेणेवाज्यम् आपश्रुन्दन्तु मैनसः भोर्भुवस्सु 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 वः ॐ शान्ति शान्ति शान्तिः ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः। ॐ ईशावास्यमिदगुम् सर्वम् यत्किञ्च जगत्याम् जगत् तेन त्यक्तेन भुञ्जेतामाकृतः कस्य सिद्धनम् कुर्वन्नेवेह कर्माणि जिजेभिषेच्छदगुम् समागाः एवम् त्वयि नान्यते दोऽस्ति न कर्म लिप्यते नरे असुर्या नामते लोका अन्धेन तमसा वृताः तागस्ते प्रेत्याभिगच्छन्ति ये केचात् महतो जनाः अनेजदेकम् मनसो जवी यो नैन देवा आप्नुवन् पूर्वमर्षत् तद्धावतो नान्यत्ते तिष्ठ तस्मिन्नपो मातरिष्वा दधाति तदेजदि तन्नेजदि तद्दूरे तद्वन्नन्तिके तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यते सर्वभूतेषु चात्मानम् ततो न विजुगुप्सते यस्मिन् सर्वाणि भूतान्यात्मैवाभू विजानतः तत्र को मोहकशोकगेकत्वमनुपश्यतः सपर्यगाक्रमकायमवृणमस्माभिरगम् शुद्धमपापविद्धम् कविर्मनीषे परिभूत् स्वयम्भूर्याथ सत्यतोऽर्थाद्व्यदधाच्चाश्वतेभ्य समाभ्यः अन्धम् तमप्रविशन्ति ये विद्यामुपासते ततो भूय इव ते तमोयौ विद्यायागुम्रताः अन्यदेवाहुर्विद्यया अन्यदा गुरविद्यया इति शुश्रुमधीराणा येन त्वद्विजचक्षिरे विद्याञ्च विद्याञ्च यस्तद्वेदोभयगुंसः अविद्यया मृत्युम् तेर्त्वा विद्यया मृतमश्नुते अन्धम् तमप्रविशन्ति ये सम्भूतिमुपासते ततो भूय इव ते तमोयौ सम्भूत्यागुम् रताः अन्यदेवाहुः सम्भवादन्यदाहुरसम् भवाद् इति शुश्रुमधीराणा येन तद्विचक्षिरे सम्भोदिम् च विनाशम् च यत्तद्वेदोपयगुंसः विनाशेन मृत्युम् तेर्त्वा सम्भोत्य मृतमश्नुते हिरण्मयेन पात्रेण सत्यस्यापि हितम् मुखम् तत्त्वम् वोषन्नपावृणु सत्यधर्माय दृष्टये पूषन्ने कश्येयमसूर्यप्राजापत्यव्योह रश्मि समोहते जोयत्ते रूपम् कल्याणतमम् दत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि वायुरनिलममृतमधेदम् भस्मान्तकम् शरीरम् ओ क्रतो स्मर कृतग स्मर क्रतो स्मर कृतग स्मर अग्रेण यसुपधाराये अस्मान् विश्वानि देव वयुनानि विद्वान् युयोध्यस्मच्चुहुराणमेनो भूयिष्ठाम् ते नम उक्तिम् विदेम ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहीशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ